ृष्णेभिस्तमोदामवोदिमपृथिव्याश्च सम्राट् सदीनसत्त्वाहव्यो भरेषु मरुत्वान्नो भवत्यन्द्रभूति यस्याप्तः सूर्यस्य भजामो भरे भरे वृत्रासुष्मो अस्ति ऋणङ्गमस्तभिस्त्रेभिरेवैर्मरुत्वान्नो भवत्यन्द्रभूति जिवोलयस्य नेतसो दुःखाणाः पन्था सोऽयन्ति समसा परीताः करद्वेषाः सादहि पौंसेभिर्मरुत्वान्नो भवत्यन्द्रभूति सो अङ्गीरोभिरङ्गीरस्तमो भोदृषा मृषाभिस्तखेभिस्तभासन् ऋग्भिर्ग्भिर्ज्येष्टो मरुत्वान्नो भवत्यन्द्रभूति सोऽनुभिर्न रुद्रेभिर्ग्भा दृढाह्ये साधक्वा अमित्रान् समीनेभिश्वभस्यानि दूर्वन् मरुत्वान्न भवत्यन्द्रभूति समन्युमे समदानस्य कर्तास्माकेभिर्नृभिः सूर्यम् सनत् अस्मिन्नहंसत्वादिः पुनहूतो मरुत्वान्न भवत्यन्द्रभूति समूदयोरणयन् शूरदातौ तम् क्षेमस्य क्षितयः कृण्वभद्रा सविश्वस्य करुणस्य सयेको मरुत्वान्न भवत्यन्द्रभूति समत्सन्दसवसमुत्सवेषु नरो नरमवसेतम् धनाय सो अन्धे चित्तमधिज्योतिर्विदन् मरुत्वान्नो भवत्यन्द्रभूति स संयेन यमधिव्राधातश्चित् सदक्षिणे सङ्गृहीता कृतानि स कीर्णाधिः सनीता धनानि मरुत्वान्नो भवत्यन्द्रभूति सर्ग्रामेभिः सनीता सरसेभिर्विदे विश्वाभिकृष्टभिर्वा स्वपुंसेभिरभिभूरसस्ते मरुत्वान्न भवत्यन्द्रभूति सर्गामिभिर्यः समजातिमेभेजामिभिर्वा पुरुहूतये वैः अपां लोकस्य तनायस्य जेठे मरुत्वान्न भवत्यन्द्रभूति सवज्रवृद्धस्युरा भीममुग्रः सहस्रजेता स्वजनीधनुग्भा सम्रेषो न समसा पाञ्चधन्यो मरुत्वान्नो भवत्यन्द्रभूति तरस्य वज्रः क्रन्दनिष्मत्स्वर्णादिवो नेषो रपतस्मीवान् संसजन्ते धनयस्तम् धनानि मरुत्वान्नो भवत्यन्द्रभूति यस्याजस्रम् समधामानमुक्तम् पारिभुजद्रोदसि विश्वदस्ति सपारिभक्रतुभिर्मन्दसानो मरुत्वान्नो भवत्यन्द्रभूति न यस्य देव देवजानमर्ता आपश्च न सवसो अन्तमापुः स प्रलिग्वात्मक्षसाक्ष्मो दिवश्च मरुत्वान्नो भवत्यन्द्रभूति लोहिच्छावा सुमनम् सुर्लभावीर्जुक्षाराय रुद्रास्वस्य मृषम् मन्दम् बिभ्राति दोर्षम् मन्त्राजीकेतनाहोषेषु भिक्षो एतत्यत्ता इन्द्रविष्णाभुक्तम् वाराभिरेणन्ति राधाः रुद्रास्वपृष्टेभिरम् भरेण सहदेवो भयमानः सुराधाः ्यांश्च पुरुहोदये वैर्हत्ता पृथिव्याम् सर्वाणि बर्हीत् स नक्षेत्रम् सजेभिश्वेन्द्रेभिस्तरसोऽम् सनाधमः सुभद्राः विश्वाहेन्द्रो अधिवक्तानो